व्यासा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी गंभीरावर्तनाभि स्तनभरनमिता शुभ्रवस्त्रोत्तरीया या लक्ष्मीर दिव्यरूपैर मणिगण खचितै स्नापिता हेमकुंभै सानित्यं पद्महस्ता मम वसतु गृहे सर्वमंगल्ययुक्ता। अथ श्री सूक्तम्। ओम हिरण्यवर्णां हरिणीं सुवर्ण रजतस्रजां चंद्रां हिरण्मयीं लक्ष्मीं जातवेदो मावह तां मा आवह जातवेदो लक्ष्मी मनपगामिनी यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहं अश्वपूर्वां रथमध्यां हस्तिनादप्रमोदिनीं श्रियं देवीमुपह्वये श्रीर्मा देवी जुषतां कांसोऽस्मितां हिरण्यप्राकारा मार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीं पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियं चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदारां तां पद्मनीमीं शरणमहं प्रपद्ये अलक्ष्मिर्मे नश्यतां त्वां वृणे। आदित्यवर्णे तपसोधिजातो वनस्पतिस्तव वृक्षोथ विल्वः तस्य फलानि तपसानुदन्तु मायांतरायाश्च बाह्या अलक्ष्मी उपैतु मां देव सख कीर्तिश्च मणिना सह प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्ति मृद्धिं ददातु मे क्षुत्पिपासामलां ज्येष्ठा मलक्ष्मीं नाशयाम्यहं अभूतिमसमृद्धिं च सर्वानिर्णुद मे गृहात् गन्धद्वारां दुरादर्शां नित्यपुष्टां करीषिणी ईश्वरीं सर्वभूतानां तामिहो पह्वये श्रियं मनसः काममाकूतिं वाचः सत्यमशीमहि पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः कर्दमेन प्रजाभूता मयि संभव कर्दम श्रियं वासय मे कुले मातरं पद्ममालिनी। आपः सृजन्तु स्निग्धानि चिक्लीत वसमे गृहे निचदेवीं मातरं श्रियं वासय मे कुले आर्द्रां पुष्करणीं पुष्टिं पिंगलां पद्ममालिनीं चंद्रां हिरण्मयीं लक्ष्मीं जातवेदो मावह आर्द्रां यः करणीं यष्टिं सुवर्णां हेममालिनीं सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो मावह ताम आवह जातवेदो लक्ष्मी मनपगामिनी यस्यां हिरण्यं प्रभूतं गावो दास्यो श्वान बिंदेयं पुरुषानः यः शुचिः प्रयतो भूत्वा जुहुयादाजमन्वहम् सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत् महालक्ष्म्यै च विद्महे विष्णुपत्न्यै च धीमहि तन्नो लक्ष्मी प्रचोदयात्।